सृष्टकं वित्तकम् उत्कृष्टकं पीडितकमिति
अधरमधनमे मधुचिलुकुति अनुतपनलेरेगगा
समुत्थानां कर्मणां गतयो यथा